air conditioning in the basement.
Mm.
Agajanana Padmarkam Gajanana Maharnisham Anekadantam Bhaktana Ekadantam Upasmahe Sri Mahaganapataye Namaha Gurave Sarva Lokana Bhishaje Bhavaroginam Nideye Sarva Vidyana Dakshina Murtaye Namaha Asmat Guru Charanaravindabhya Namaha Jnanananda Mayam Devam నిర్మలస్ఫటికాకృతిం ఆధారం సర్వవిద్యానాం హయగ్రీవముపాస్మహే శ్రీ హయగ్రీవమూర్తయే నమః సరస్వతీ నమస్తుభ్యం వరదే కామరూపిణి విద్యారంభం కరిష్యామి సిద్ధిర్భవతు మే సదా శ్రీమహాసరస్వత్యై నమః అస్మత్ శ్రీగురు చరణారవిందాభ్యాం నమః సర్వేభ్యో నమః
సమీచీనం భగిని సమీచీనం సర్వేభ్యో నమః సర్వేషాం స్వాగతం అస్మిన్ వర్గే అస్మాకం ప్రవర్తమాన విషయ అస్తి తత్ర భవిష్యత్ కాల ఇతి తత్ర ఆత్మనేపథ్య ధాతూనాం కింతు అద్య తత్ర అనేకే జనాః అత్ర న సంతి ఇతి కృత్వా తత్ర ఏకాం కథాం పఠామః లఘు కథ ఏవ అస్తి తత్ర సంభాషణ సందేశే తత్ర బాలమోదిని ఇతి తతః స్వీకృతా కథా అస్తి సర్వే ప్రాప్తవంతః ఇతి మన్యే కథాం ప్రాప్తవంతః ఇతి మన్యే అతః తత్ర నరేష్ మహోదయ ఆరంభం కరోతి వా ప్రియా భగిని నమస్కారః
నమస్తే మహోదయ
నమస్కార భగిని ప్రాప్తవతీ వా భగిని
ఆం ప్రాప్తం మహోదయ
అస్తు అస్తు భగిని అస్తు తర్హి నరేష్ మహోదయ ఆరంభం కరోతి వా మహోదయ నరేష్ మహోదయ న శ్రూయతే అస్తు తర్హి తత్ర లక్ష్మీ భగినీ
అస్తు అస్తు మహోదయ కదాచిత్ కస్యచిత్ మహాత్మనః ప్రవచనకార్యక్రమః ప్రవర్తమానః ఆసీత్ కార్యక్రమే బహవః భాగం వహంతి స్మ అహంకార ద్వేష లోభ మోహాదీన్ త్యక్త్వా సాత్వికం జీవనం యాపనీయం ఇతి సహ జనాన్ ఉపదిశది స్మ తస్య ఉపదేశవచనేషు బహవః మహతీం శ్రద్ధాం ప్రదర్శయంతి స్మ
సమీచీనం అగ్రిమమపి పఠతు భగిని
అథ కదాచిత్ కశ్చన శ్రోతా మహాత్మానం
ఉపసర్ప్య
అపృచ్చత్ మహోదయ భవతః ప్రవచనం తు ప్రతిదినం శ్రద్ధయా శృణోమి అహం కింతు తతః మయి కాపి ప్రగతిః తు న జాతా కిమర్థం ఏవం ఇతి
సమీచీనం భగిని అస్తు అగ్రి అగ్రే తత్ర నరేష్ మహోదయ ఇదానీ పఠితుం శక్నోతి వా
కిమ్ అభవత్ ఐ గాట్ డిస్కనెక్టెడ్ అండ్ నౌ ఇన్ చాట్ మధ్య లింక్
చాట్ మధ్య తత్ర న భవతి మహోదయ తత్ర అహం పునః ప్రేషయామి ఏకవారం తత్ర నూతనతయా యది కోపి ఆగచ్చతి తత్ర పూర్వ చాట్ తత్ర న లభతే
అస్తు ప్రాప్తవాన్
యథా భవాన్ ఆగచ్చతి తతః చాట్ మధ్య కిం కిం ప్రేషితం తదేవ లభతే ఇదానీం అస్తి ఇతి మన్యే
ఏకనిమిషం అస్తు కుత్ర
తదా మహాత్మా తమ్ అపృచ్చత్ ఇది తృతీయ పరిచ్ఛేద
అస్తు తద్ మహాత్మా తదా మహాత్మా తమ్ అపృచ్చత్ భవాన్ కుతః ఆగచ్చతి ఇతి అనతి దూరే स्थितात् ग्रामात् आगच्छामि श्रीमन् तेन श्रोता उक्तम् साधु भवतः ग्रामः कथं प्राप्तुं शक्यः महात्मना पृष्टम् इतः गमनाय कश्चन मार्गः अस्ति तम् अनुसृत्य पादाभ्याम् अश्वाशकटेन वृषभशकटेन वा गमनेन मम ग्रामः प्राप्तुं शक्यः
हा इति समीचीनं महोदय अस्तु इदानीम् अग्रे धन्यवादः महोदय अग्रे तत्र प्रिया भगिनी अग्रे पठति वा
आम् महोदय अत्रैव उपविश्य भवतः ग्रामः प्राप्तुं शक्यः किम् तत् कथं शक्यं ग्रामं प्राप्तुं यानादिकम् आश्रयणीयं पादाभ्यां वा गन्तव्यं ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रवणात् किं भवद् ग्रामः प्राप्येत अग्रे पठामि वा तत् श्रुत्वा सः श्रोता हसन् अवदत् तत् कथं सम्भवेत् ग्रामः प्राप्तव्यः चेत् तत् सम्बद्धः मार्गः क्रमणीयः एव मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत
समीचीनं धन्यवादः भगिनि अस्तु अग्रे वेदा भगिनि
एवमेव भवति जीवने प्रगतिप्राप्तिः अपि यदा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः तथा प्रगतिं प्राप्तुम् अपि केचन मार्गाः भवितुम् अर्हन्ति तेषु कोऽपि मार्गः अनुस्रियेत् चेदेव प्रगतिः प्राप्येत केवलेन उपदेशश्रवणेन न किमपि प्रयोजनं केवलेन उपदेशश्रवणेन न किमपि प्रयोजनं कश्चन मार्गः अनुश्रियतां मार्गानुगुणं फलं प्राप्येत मार्गम् एव अननुसृत्य प्रगतिप्राप्तिच्छाकरणं न उचितम् इति बोधितवान् सः महात्मा
धन्यवादः भगिनि अस्तु समीचीनं
धन्यवादः
अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र मूलविषयः तत्र सर्वे अवगन् मूलविषयः कः इति अवगतवन्तः इति मन्ये ओ अस्तु पुनः तत्र नरेश महोदय गतवान् अस्तु न जानामि किमर्थमध्ये कनेक्षन् भग्नः इति अस्तु अतः तत्र ओ नरेश महोदय अस्ति अस्तु अस्तु महोदय अस्तु तर्हि तत्र किं कुर्मः तत्र किं कुर्मः तत्र यत् पठितं तथैव तस्य विवरणं मास्तु इति चिन्तयामि अतः तत्र हा प्रिया भगिनी तत्र आरम्भेण किं किञ्चित् वदति वा भगिनि प्रथमपरिच्छेदं स्वीकृत्य
अस्तु महोदय कदाचित् कस्यचित् महात्मनः प्रवचनकार्यकर्म क्रमः प्रवर्तमानः आसीत् अत्र अस्ति कदाचित् कस्यचित् इति चिच्चनप्रयोगः कुत्रापि कोऽपि एकः महात्मनः अस्ति तस्य प्रवचनकार्यक्रमः इदानीं प्रवर्तते इदानीं अस्ति इति
इदानीं प्रचलन् अस्ति समीचीनं प्रचलन् अस्ति समीचीनं भगिनि तत्र कस्यचित् इति अस्ति कस्यचित् इति पदस्य अन्वयः तत्र केन पदेन अन्वयः भवति कस्यचित् इति कस्य योगः चित् इति पदं समीचीनं तत्र कस्य इति षष्टिविभक्ति
षष्टिविभक्ति कः इति
षष्टि समीचीनम् इदानीं तत्र सम्बन्धः अस्ति वा तस्य पदस्य अपि अन्यपदस्य मध्ये
आम् महात्मनः अपि षष्टिविभक्त्याम् एव अस्ति तस्य पदस्य एतत् विशेषणम्
अस्ति समीचीनं तत्र कस्यचित् महात्मनः इदानीं तत्र प्रथमविभक्तौ किं भवति रूपं
द्वौ रूपं भवति अत्र रूपौ प्रवचनकार्यक्रमः प्रवर्तमानः
न केवलं तत्र कस्यचित् महात्मनः इति षष्टिविभक्त्याम् अस्ति खलु भगिनि
आम्
तत्र तस्य प्रथमविभक्तिरूपं किम् इति
ओ तस्य अस्तु अस्तु कश्चित् महात्मान्
महात्मा महात्मा कस्यचित् महात्मा इति
कस्यचित् वा कश्चित् महात्मा
क्षम्यतां हा कश्चित् महात्मा हा न मम दोषः धन्यवादः भगिनी हा कश्चित् महात्मा इति कश्चित् महात्मा इति तस्य तत्र महात्मा इति हलन्तपदं हा तत्र महात्मनः इति षष्टिविभक्ति भवति हा समीचीनं भगिनी हा अपि इदानीं तत्र प्रवचनकार्यक्रमः इति अस्ति
आम् तत् तत् अत्र एतत् अत्र प्रथमाविभक्त विभक्तौ अस्ति कार्यक्रमः प्रवर्तमानः इति
समीचीनं भगिनि हा कार्यक्रमः प्रवर्तमानः समीचीनं भगिनि अस्तु आसीत् प्रवर्तमानः आसीत् समीचीनम् अग्रे हा समीचीनं कदाचित् तु अव्ययं अग्रे
कार्यक्रमे बहवः भागं वहन्ति स्म कार्यक्रमे इति सप्तमीविभक्त्याम् अस्ति बहवः जनाः इति प्रथमा बहुवचनरूपं मध्ये अस्ति भागं वहन्ति स्म भागम् इति कर्मपदमस्ति ते किं कुर्वन्ति ते भागं वहन्ति वहन्ति अत्र क्रियापदं
वहन्ति समीचीनं भगिनि कार्यक्रमे बहवः भागं वहन्ति स्म समीचीनं अग्रे
अहङ्कार द्वेष लोभ मोहादीन् त्यक्त्वा सात्विकं जीवनं यापनीयम् इति सः जनान् उपदिशति स्म सः महात्मा कथं अहङ्कारम् अपि च द्वेषं लोभः मोहः एते सर्वे दुष्टव्यवहारान् कथं त्यक्तव्यम् एतत् त्यक्त्वा कथं सात्विकं जीवनं यापनीयम् इति सः बोधयति
समीचीनं जनान् बोधयति स्म समीचीनं भगिनि इदानीं तत्र क्रियासूचकपदानि कानि अस्मिन् वाक्ये
एकः त्यक्त्वा इति अस्ति
तस्य कर्मपदम् अस्ति वा
आम् तस्य कर्मपदमेव अहङ्कार द्वेष लोभ मोहादीन्
इति समीचीनं भगिनि तत्र द्वितीयविभक्तौ अस्ति तदेव कर्मपदं त्यक्त्वा इति अस्तु समीचीनम् अग्रे
द्वितीयमस्ति यापनीयम् अनीयरूपमस्ति
अनीयरूपमस्ति तस्य अपि कर्मपदम् अस्ति वा
आम् सात्विकं जीवनं यापनीयम् इति
कर्मपदम् अपि तत्र विशेषणविशेष्यभावः
आम्
सात्विकं जीवनं कीदृशं जीवनं सात्विकं जीवनं समीचीनम् अपि अग्रे
अग्रे उपदिशति स्म क्रियापदमेव साक्षात्
तत्र उपदिशति साक्षात् क्रियापदं त्वान्तं किमपि नास्ति तस्य कर्मपदम् अस्ति वा
जनान्
जनान् समीचीनं भगिनि अतः तत्र कर्मपदत्रयमस्ति अस्मिन् वाक्ये समीचीनं भगिनि अस्तु अग्रे
तस्य उपदेशवचनेषु बहवः महतीं श्रद्धां प्रदर्शयन्ति स्म ते जनाः ये तत्र सन्ति ते एषः एतं महात्मान एतस्य महात्मनस्य महात्मनः श्रद्धां बहवः श्रद्धां प्रदर्शयन्ति
किन्तु भगिनि तत्र समीचीनं किन्तु तत्र श्रद्धां प्रदर्शयन्ति स्म इति समीचीनमेव किन्तु श्रद्धा अथवा तत्र श्रद्धा वा तत्र अथवा तत्र किम् अन्यपि तत्र भावः तत्र विश्वासः तदस्ति चेत् तत्र सप्तमी विभक्ति भवति नाम तस्मिन् पुरुषे मम विश्वासः अस्ति
अस्ति आदरः विश्वासः
इति समीचीनं भगिनि अत्र तत्र कस्मिन् विषये श्रद्धा अस्ति
महात्मानि श्रद्धा अस्ति
अपि अन्यत् साक्षात् तदपि समीचीनं किन्तु अस्मिन् वाक्ये
महात्मानि उपदेशवचनेषु
हा महात्मनः उपदेशवचनेषु महात्मनः उपदेशवचनेषु श्रद्धा अस्ति किन्तु केवलं श्रद्धा अस्ति इति न इदानीं तत्र तां श्रद्धां प्रदर्शयन्ति अतः तत्र नाम तत्र श्रद्धा अस्ति अपि तत्र श्रद्धायाः प्रदर्शनमपि भवति अतः तत्र श्रद्धाम् इति कर्मपदं भवति केवलम् अस्ति इति वदामश्चेत् श्रद्धा अस्ति तत्र कर्तृपदं श्रद्धा का अस्ति श्रद्धा अस्ति किन्तु अत्र श्रद्धां प्रदर्शयन्ति हा समीचीनं भगिनि उत्तमं हा अतः तत्र कस्मिन् विषये उपदेशवचनेषु श्रद्धा महती श्रद्धा अस्ति तां महतीं श्रद्धां ते जनाः प्रदर्शयन्ति स्म इति समीचीनं भगिनि अस्तु उत्तमम् इदानीं तत्र अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा
हा अस्तु महोदय अथ कदाचित् कश्चन श्रोता महात्मानम् उपसर्प्य अपृच्छत् महोदय भवतः प्रवचनं तु प्रतिदिनं श्रद्धया शृणोमि अहं किन्तु ततः मयि कापि प्रगतिः तु न जाता किमर्थम् एवम् इति अत्र कदाचित् कश्चन इति चित्चन प्रयोगस्य
कदाचित् अव्ययम् इदानीं कश्चन कः
कश्चन प्रथमाविभक्ति
कश्चन कश्चन कः कश्चन अस्ति
कश्चन श्रोता
हा श्रोता श्रोता इति प्रातिपदिकं किं तत्र श्रोता
श्रोता प्रथम प्रातिपदिकं श्रोतृ
हा ऋकारान्तपदं समीचीनं हा समीचीनं भगिनि अस्तु हा तत्र कदाचित्
श्रोता महात्मानं
श्रोता किं किं कृतवान् सः श्रोता
उपसर्प्य अपृच्छत्
कम् उपसर्प्य
महात्मानम् उपसर्प्य
नाम तस्य समीपं गत्वा महात्मनः समीपं गत्वा
अपृच्छत्
तत्र उपसर्प्य इति तत्र प्रत्ययः कः
ल्यप्
उपसर्प्य सर्पति उपसर्पति उपसर्प्य इति समीचीनं
भवतः प्रवचनं तु सः उक्तवान् भवतः प्रवचनम् अहं प्रतिदिनं श्रद्धया शृणोमि किन्तु मम प्रगतिः न जाता
प्रवचनम् अहं श्रद्धया अहं शृणोमि समीचीनं तत्र शृणोमि इति क्रियापदं तत्र कर्तृपदं किम्
शृणोमि
हा शृणोमि क्रियापदं कर्तृपदं
कर्तृपदम् अहम्
अहम् इदानीं कर्मपदम् अस्ति वा तत्र अहं किं शृणोमि
शृणोमि प्रवचनं
हा
भवतः प्रवचनं
तत्र प्रवचनम्
अहं शृणोमि
तत्र प्रतिदिनं शृणोमि
प्रतिदिनं
श्रद्धया शृणोमि तत् अपि तु इति अस्ति तत्र एम्फसिस् नाम प्रतिदिनम् अहं श्रद्धया शृणोमि तत्र भवतः प्रवचनं तु प्रतिदिनं श्रद्धया अहं शृणोमि अस्तु अग्रे
किन्तु ततः मयि कापि प्रगतिः न तु न जाता
हा तत्र किन्तु ततः इति इत्युक्ते श्रवणात् ततः कारणपञ्चमे ततः तत्र
श्रवणात् परमपि मम कोऽपि प्रगतिः न जाता
हा तत्र कोऽपि कापि प्रगतिः यतोहि प्रगतिः स्त्रीलिङ्गे अस्ति न जाता किन्तु तत्र जाता इति तत्र जन्म स्त्रीलिङ्गपदं
समीचीनं
किन्तु तत्र कस्मिन् प्रगतिः न जाता इति प्रश्नः भवति अतः तत्र उत्तरं किम् कस्मिन् प्रगतिः न जाता
मयि
मयि मयि प्रगतिः न जातः नाम मम प्रगतिः तत्र मम तत्र एतादृशविषयेषु मम प्रगतिः न जाता अथवा मयि प्रगतिः
न
जाता इति हा अतः
किमर्थम् एवम् इति पृष्टवान्
हा किमर्थम् एवं नाम किमर्थम् एवम् अस्ति किमर्थम् एषा स्थितिः अस्ति किमर्थं मम प्रगतिः न जाता इति पृच्छति समीचीनं भगिनि अस्तु हा श्रीप्रिया भगिनी नमस्कारः
नमस्ते महोदय
नमस्कार भगिनि तत्र भवती तत्र पठितुं शक्नोति वा भगिनि
आमां पठामि महोदय
अस्तु भगिनि अतः तत्र तदा महात्मा इति
तदा महात्मा तम् अपृच्छत् भवान् कुतः आगच्छति इति यदा सः यः यदा सः श्रोता पृष्टवान् महात्मानं तदा सः वदति महात्मा वदति
भवान्
महात्मानं न न श्रोतारम्
श्रोता इति अस्ति श्रोता इति पदस्य द्वितीयविभक्ति एकवचनरूपं किम् अस्ति
श्रोतारं
समीचीनं
भवान् कुतः आगच्छति इति महात्मा पृच्छति पृष्टवान् अन्यत् किमपि विवरणं दातव्यं
किमपि
नास्ति नास्ति अग्रे गच्छामि वा
महोदय तत्र प्राप्तुं शक्यः तावत् पर्यन्तं पठतु
इतः अनतिदूरे स्थितात् ग्रामात् आगच्छामि श्रीमन् तेन श्रोत्रा उक्तम् अहं इतः कस्मात् दूरे
अनतिदूरे नाम अतिदूरे नास्ति समीपे एव
समीपे ओ अस्तु
अन् अतिदूरे
न दूरे
न दूरे
न अतिदूरे इतः समीपे कश्चित् ग्रामः अस्ति ततः अहम् आगच्छामि इति श्रोत्रा उक्तम्
तत्र श्रोता उक्तवान् अथवा तत्र उक्तम् इति अस्ति अतः तत्र उक्तमस्ति चेत् तत्र श्रोता इति पदस्य का विभक्तिः भवति तत्र
क्षम्यतां महोदय
श्रोता उक्तवान् इति समीचीनं किन्तु तत्र वाक्ये उक्तम् इति अस्ति खलु ततः तत्र श्रोत्रा इति तत्र विभक्तिः तत्र
तृतीया विभक्ति कर्मणि रूपे अस्ति
कर्मणि समीचीनं तेन श्रोत्रा तं नाम सः श्रोता उक्तवान् अथवा तेन श्रोत्रा उक्तं
सः श्रोता उक्तवान् तस्य कर्मणि रूपं
तेन
श्रोत्रा उक्तं
समीचीनम् अस्तु अग्रे
साधु भवतः ग्रामः कथं प्राप्तुं शक्यः महात्मना पृष्टम् अत्रापि कर्मणि रूपे अस्ति महात्मना पृष्टम् इति सः पृच्छति श्रोतारं पृच्छति सः महात्मा श्रोतारं पृच्छति कथं वयं भवतः ग्रामं गन्तुं शक्नुमः इति
समीचीनं तत्र कथं प्राप्तुं शक्यः शक्यः इति पुल्लिङ्गे अस्ति किमर्थम्
ग्रामः इति अस्ति
कथं प्राप्तुं
शक्यः मया शक्यः इति भवति खलु
सत्यं मया कथं प्राप्तुं शक्यः भवतः ग्रामः समीचीनम् अस्तु अग्रे
इतः गमनाय कश्चन मार्गः अस्ति तम् अनुसृत्य पादाभ्याम् अश्वशकटेन वृषभशकटेन वा गमनेन मम ग्रामं प्राप्तुं शक्यः सः श्रोता वदति कथं वयं महात्मा तस्य ग्रामं प्रति आगन्तुं शक्नोति इति सः वदति श्रोता महात्मानं प्रति वदति अतः प्रथमं वदति मार्गः कश्चन मार्गः अस्ति इति वदति. अत्र कश्चन इति चन प्रत्यय अतः योगः चन इति भवति प्रथमा विभक्ति एकवचनम्
अपि गमनाय इति चतुर्थी विभक्तिरूपं किमर्थं तत्र
गमनाय कश्चन
तत्र गमनाय तत्र
गमनार्थम् इति भवति
समीचीनं गमनार्थम् अथवा गन्तुं
गन्तुं गन्तुं
तत्र तत् कर्तुं तत्र मार्गः अस्ति
अस्ति इति
समीचीनं
तम् अनुसृत्य पादाभ्याम् अश्वशकटेन मार्गम् अनुसृत्य तम् इति मार्गं सूचयति खलु महोदय अनुसृत्य पादाभ्यां गन्तुं प्राप्तुं ग्रामं प्राप्तुं शक्नुमः नो चेत् अश्वशकटेन नो चेत् माध्यमानि वदति अत्र तु
समीचीनं तत्र पादाभ्याम् इति पदस्य विभक्ति का तत्र
पादाभ्याम् इति तृतीया द्विवचनं
तत्र पादाभ्यां गन्तुं शक्नुमः अश्वशकटेन गन्तुं शक्नुमः
वृषभशकटेन अपि गन्तुं शक्नुमः
गमनेन तत्र पुनः तत्र गमनेन इति अस्ति किन्तु तत्र माध्यमं नास्ति तत्र तेन कर्मणि तादृशं तत्र तेन गमनेन तत्र मार्गं
ग्रामं प्राप्तुं शक्नुमः
शक्यः
तत्र प्राप्तुं शक्यः
शक्यः प्राप्तुं शक्यः समीचीनं भगिनि अस्तु
धन्यवादः
धन्यवादः अस्तु अग्रे नरेश महोदय वदति वा
आं महोदय अहं न जानामि किं भवति
अस्तु महोदय
पश्यामः अत्र अस्मि अत्रैव उपविश्य भवतः ग्रामः प्राप्तुं शक्यः किं
महात्मा किं
महात्मा अपृच्छत् श्रोतारम् अपृच्छत् अत्रैव उपविश्य भवतः ग्रामः प्राप्तुं शक्य किम्
तत्र महात्मा किं पृच्छति सः किं
कर्तः ग्रामं गन्तुं यदि भवान् अत्र उपविशति ग्रामं प्राप्तुं सम्भवति वा
अत्रैव तिष्ट्वा अत्रैव स्थित्वा तत्र ग्रामं प्राप्तुं शक्नोति वा इति सः पृच्छति अतः अत्रैव उपविश्य उपविशति रूपं किं
ल्यप्
ल्यपन्तं उपविश्य भवतः ग्रामः प्राप्तुं शक्यः
किं शक्यः किं
तत्र कर्तृरूपे वदतु अत्रैव भवान् अत्रैव उपविश्य
भवान्
ग्रामं प्राप्तुं
शक्नोति
कर्मपदम् इति स्वीकरोतु ग्रामं भवान् भवतः ग्रामं प्राप्तुं इदानीं क्रियापदं किं शक्यः इति स्थाने साक्षात् क्रियापदं किं भवति भवान् शक्यः इति स्थाने तत्र क्रियापदं किं भवति शक् इति धातोः क्रियापदं शक्
शक्नोति
शक्नोति भवान् शक्नोति किं
भवान् शक्नोति किम्
अत्रैव उपविश्य भवान् भवतः ग्रामं
प्राप्तुं शक्नोति
किम् इति सः पृच्छति अतः तत्र श्रोता किं वदति
तत् कथं शक्यं
तत् कथं शक्यम् इति सः वदति आश्चर्येण वदति तत्र तत् किं भवान् किं वदति इति
तत्तु शक्यं नास्ति
इति सूचयति समीचीनं महोदय तत् कथं
कथं शक्यम्
असम्भवं
ग्रामं प्राप्तुं यानादिकम् आश्रयणीयं पादाभ्यां वा गन्तव्यम्
नाम ग्रामं प्राप्तुम् इच्छामश्चेत् किम् अत्रैव स्थित्वा कर्तुं शक्नुमः वा न अतः ग्रामं प्राप्तुं किं पादाभ्यां वा गन्तव्यं
यानानि
यानं स्वीकृत्य यानेन वा गन्तव्यम् अतः यानादिकम् आश्रय
आश्रयनीयं
नाम यानस्य आश्रयः आश्रयं करणीयम् एव कुर्मश्चेत् तत्र नाम यानं स्वीकृत्य तत्र यानेन गन्तुं शक्नुमः नो चेत् यानं नास्ति चेत् पादाभ्यां गन्तव्यं भवति किन्तु तत्र किमपि करणीयं
विना करणेन
तत्र न गन्तुं शक्नुमः इति वदति समीचीनम् अस्तु अग्रे
अग्रे ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रवणात् किं भवद्ग्रामः प्राप्येत
इदानीं महात्मा किं पृच्छति
ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रवणात् किं भवद्ग्रामः प्राप्येत महात्मा अपृच्छत् भवान् विवरणं तु दत्तवान् परन्तु केवलं विवरणं श्रोतुं किं
श्रुत्वा
कोऽपि भवद् भवतः ग्रामं प्राप्नोति वा प्राप्तुं शक्नोति वा
अन्यत् केवलं नाम तत्र केवलं विवरणं श्रुत्वा
केवलं
अन्यत् किमपि न करोति सः केवलं कथं प्राप्तुं शक्यः इति विवरणं श्रुत्वा तस्मात् विवरणात् एव तत्र ग्रामं प्राप्तुं
ग्रामं प्राप्नोति वा
हा इति तत्र प्राप्येत इति तत्र
तत्
विधिलिङ्गस्ति हा अग्रे तत् तत् तं दकारं कुर्मः हा विधिलिङ्गकारः किन्तु स्यात् प्राप्येत इति तत् विधिलिङ्गकारः हा इति समीचीनम् अस्तु महोदय तत्र अतः तत्र अग्रे तत्र अग्रे अपि करोतु महोदय तत्र तत्र
श्रुत्वा सः श्रोता हसन् तत् कथं सम्भवेत् ग्रामः प्राप्तव्यः चेत् तत्सम्बद्धः मार्गः क्रमणीयः एव मार्गस्य अनुसरणार्थे ग्रामः कथमपि न प्राप्येत श्रोता महात्मस्य श्रुत्वा हसन् आसीत् तदा अवदत् अपि तत्तु न सम्भवति तत् कथं सम्भवेत्
सम्भवेत् पुनः तत्र विधिलिङ्गकारः
विधिलिङ्गत्
कथं भवेत् तत् तत्र अथवा सम्भवेत् तत्र तत् कथं कर्तुं शक्नुमः तत् कथं सम्भवति
ग्रामः प्राप्तव्यः चेत् सत्तत् सम्बद्धः मार्गः क्रमणीयः एव
तत्र क्रमणीयः नाम तस्मिन् मार्गे तत्र पादाभ्यां गन्तव्यम् अस्ति तत्र क्रमणीयः नाम तस्मिन् मार्गे यदि वयं चलामः तत् चलनीयम् अस्ति नो चेत् तत्र अन्ये मार्गे गच्छामश्चेत् तत्र किम् अन्यत् ग्रामं गच्छामः किन्तु
सोपाने
तत्र क्रमणीयः सत्यं तत्र पादाभ्यां किञ्चित् समीपं गच्छामः तत्र क्रमणीयः मार्गः क्रमणीयः इति वदति तत्र ग्रामः प्राप्तव्यः चेत् ग्रामः प्राप्तव्यः इति इच्छामः तस्मिन् सन्दर्भे किं करणीयः अस्माभिः
मार्गः
क्रमणीयः एव अस्माभिः तत्र नो चेत् तत्र वयं तत्र ग्रामं न प्राप्नुमः मार्गस्य
मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत
प्राप्येत इति पुनः पूर्वमासीत् तत्र विधिलिङ्गकारः ऋते इति अस्ति ऋते अस्ति चेत् तत्र विभक्ति का भवति
द्वितीय
न
ऋते विना विना तु
विना इति भिन्नं विना इति भिन्नं विना इति भिन्नं ऋते इति भिन्नं
ऋते पञ्चमी
अनुसरणात् इति अस्ति
अनुसरणात् अस्ति
अनुसरणात् ऋते तस्मात् ऋते नाम यदि तत् तद् यदि तत् न कुर्मः न तत्र ग्रामं न प्राप्नुमः तत्र मार्गस्य अनुसरणी अनुसरणं करणीयम्
यदि न करण यदि न करणीयं तु
यदि न कुर्मः
भवति
यदि न कुर्मः तत्र ग्रामं न प्राप्नुमः मार्गम् अनुसरामः चेत् मार्गम् अनुसरामश्चेत् ग्रामं प्राप्नुमः अथवा मार्गस्य अनुसरणात् ऋते ग्रामः अस्माभिः
न प्राप्येत
कथमपि न प्राप्येत तत्र तत्र गन्तुमेव न शक्नुमः वयम् इति समीचीनं महोदय अस्तु इदानीं तत्र अस्तु अग्रे तत्र गीताञ्जलिभगिनी अग्रे पठति वा भगिनि गीताञ्जलिभगिनी
तत् श्रुत्वा सः श्रोता हसन् अवदत् इति
एवमेव तत्र प्राप्येत इति तावत्पर्यन्तं पठतु भगिनि मध्ये तेषु कोऽपि मार्गः इति प्राप्येत तावत्पर्यन्तम्
अस्तु एवमेव भवति जीवने प्रगतिप्राप्तिः अपि यथा
तावत्पर्यन्तम् एकवारं पठतु भगिनि एवमेव भवति जीवने प्रगतिप्राप्तिः अपि
अपि सम्पूर्ण
अस्तु सम्पूर्णपरिच्छेदं पठतु एकवारं तदनन्तरम् एतावत् प्राप्येत पर्यन्तं विवृणोतु
अस्तु महोदय यथा भवत् ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः तथा प्रगतिं प्राप्तुमपि केचन मार्गाः भवितुम् अर्हन्ति तेषु कोऽपि मार्गः अनुस्रियेत चेदेव प्रगतिः प्राप्येत अस्तु केवलेन उपदेशश्रवणेन न किमपि प्रयोजनं कश्चन मार्गः अनुस्रियताम् मार्गानुगुणं फलं प्राप्येत मार्गमेव अननुसृत्य प्राप्तिच्छाकारणं न उचितम् इच्छाकरणं न उचितमिति बोधितवान् सः महात्मा अस्तु महोदय एवमेव भवति जीवने प्रगतिप्राप्तिः अपि एवमेव इत्युक्ते यथा इत्युक्ते
यथा तत्र श्रोता किम् उक्तवान् श्रोता किम् उक्तवान् हसन् अवदत् सः उक्तवान् सः किम् उक्तवान् तत्र मार्गं गन्तुं तत्र ग्रामं गन्तुम् इच्छामश्चेत् किं करणीयं
किं करणीयं
ग्रामं गन्तुम् इच्छामश्चेत् तत्र किम् तत्र मार्गम् अनुसरणं मार्गस्य अनुसरणं करणीयमेव
मार्गस्य अनुसरणं करणीयम् इति
नो चेत् तत्र मार्गं यदि न अनुसरामः तत्र ग्रामं न प्राप्तुं शक्नुमः
कथं प्राप्यते
केवलं तत्र अत्रैव स्थित्वा तत्र ग्रामस्य मार्गः कः इति शृण्मः तत्र किम् इदानीं तत्र ग्रामे स्मः वा न वयं न खलु
न
हा केवलं तत्र मार्गः कः इति विवरणं शृणुमः तेन विवरणस्य श्रवणेन तत्र ग्रामं प्राप्तवन्तः वा न खलु
न
तत्र मार्गस्य अनुसरणं करणीयम् इति सः श्रोता वदति हा इदानीम् अतः तत्र इदानीं महात्मा
अतः महात्मा वदति एवमेव भवति इत्युक्ते यथा एव भवतः जीवने प्रगतिप्राप्तिः भवति इति
जीवने इति अस्ति तत्र
भवति जीवने भवति इति सप्तमे भवति जीवने अपि जीवने अपि सप्तमे भवति जीवने प्रगतिप्राप्तिः प्रगतिप्राप्तिः भवति इति
अपि भवति समीचीनं तत्र प्रगति
भवति इति क्रियापदं
प्रगतिः प्राप्तिः तत्र प्रगतिः इति तत्र स्त्रीलिङ्गे अस्ति प्रगत्याः तत्र प्रगतिः इति षष्ठी प्रगतिः पदस्य षष्ठी किम् अस्ति
प्रगत्याः प्राप्तिः भवति
प्रगत्याः प्राप्तिः अपि एवमेव अस्ति
एवमेव अस्ति वा भवति
एवमेव भवति एवमेव भवति नाम अग्रे विवृणोति किं
यथा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः तथा प्रगतिं प्राप्तुमपि केचन मार्गाः भवितुम् अर्हन्ति इत्युक्ते उदाहरणेन वदति महात्मा यथा किमपि भवद्ग्रामं प्राप्तुं
भवतः ग्रामं प्राप्तुम्
इच्छति चेत् विभिन्नाः मार्गाः सन्ति किन्तु
स्युः नाम तत्र भवितुम् अर्हन्ति तत्र एकः एव मार्गः इति एकः मार्गः अस्ति अपि अन्य मार्गः अपि भवितुम् अर्हन्ति न जानीमः
अर्हन्ति
अतः तत्र ते भवितुं तत्र सम्भवेत् नाम तत्र
सम्भवेत्
अन्य मार्गः सम्भवेत् अतः तत्र अन्ये मार्गाः अपि स्युः विभिन्नाः मार्गाः स्युः भवतः किन्तु
प्रगतिं प्राप्तुम्
न किन्तु नाम तथैव क्षम्यतां तथैव
यदि प्रगतिं प्राप्तुम् इच्छन्ति केचन मार्गाः भवितुम् अर्हन्ति इत्युक्ते ते तु
अत्रापि प्रगतिं प्राप्तुं तत्र
प्राप्तुं बहवः मार्गाः भवितुम् अर्हन्ति अत्र अपि
अत्रापि अस्मिन्
अत्रापि
आध्यात्मिकी जीवने अपि तत्र
जीवनशुद्धीकरणार्थं
आध्यात्मिकविषये तत्र अग्रे गन्तुम् इच्छामश्चेत् तत्र प्रगतिं प्राप्तुम् इच्छामश्चेत्
इच्छामश्चेत् बहवः मार्गाः
केचन मार्गाः स्युः
भवितुं
एकः एव मार्गः इति न वक्तुं शक्नुमः केचन मार्गाः भवितुम् अर्हन्ति
आं महोदय तेषु कोऽपि मार्गः अनुस्रियेत् चेदेव प्रगतिः प्राप्यते इत्युक्ते एकं तेषु सप्तमे
तेषु मार्गेषु
कोऽपि एकः मार्गः इत्युक्ते अनुस्रियेत् एव चेदेव
अनुस्रियेत
चेदेव प्रगतिः प्राप्येत् भिन्नमार्गाः अनुसरति चेत् एकमेव
न तदपि सम्भवति भगिनि किन्तु तत्र केवलं तत्र मार्गाः सन्ति इति कृत्वा किमपि लाभः नास्ति
न
एकं मार्गं स्वीकृत्य यत् यः कोऽपि मार्गः यः कोऽपि मार्गः भवतु किन्तु एकः मार्गः अनुस्रियेत नाम तस्य एकं मार्गम् अनुसरामश्चेदेव
अनुसरणीयम् एव इति
एकः मार्गः अनुसरणीयः इति अस्माभिः अनुसरणीयः किमर्थं तेनैव
करणीयः एव प्रगतिः
यतोहि तेनैव वयं प्रगतिं प्राप्तुं शक्नुमः
प्रगतिं
प्राप्तुं
इतस्ततः जाना गच्छति चेत् प्रगति न प्राप्येत इति अपि एकः अर्थः
अस्ति तत्र पूर्वस्मिन् परिच्छेदे तत्र मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत इति स्थाने तत्र प्रगतिः इति स्थापयतु अपि वाक्यं वदतु
कुत्र महोदय
पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं मार्गस्य अनुसरणात् ऋते इति
मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत किं करणीयं महोदय
तत्र ग्रामः स्थाने प्रगतिः इति स्थापयतु
अस्तु मार्गस्य अनुसरणात् ऋते
प्रगतिः
कथमपि न प्राप्येत
इति समीचीनं खलु
हा 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 तदपि
तत्र ग्रामं गन्तुं मार्गस्य अनुसरणं करणीयम् अत्र प्रगतिः प्रगतिः इच्छामश्चेत् तत्र मार्गस्य अनुसरणं करणीयं तत्र मार्गस्य अनुसरणात् ऋते प्रगतिः कथमपि न प्राप्येत
कथमपि
न प्राप्येत इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र वेदा भगिनी अन्तिमभागः वदति वा
आं महोदय केवलेन उपदेशश्रवणेन न किमपि प्रयोजनं केवलेन उपदेशश्रवणेन तृतीया विभक्ति अस्ति तत्र
केवलेन
आं महोदय
प्रथमविभक्तिरूपं
केवलम् उपदेशश्रवणम्
उपदेशस्य श्रवणम् उपदेशश्रवणं
समस्तपदमस्ति
अतः तत्र केवलं नाम केवलं तदेव केवलम् उपदेशश्रवणम् उपदेशस्य
केवलं
शृण्मः केवलम् उपदेशं शृण्मः चेत्
कोऽपि प्रयोजनं नास्ति
किमपि प्रयोजनं तत् किमपि इति यतोहि प्रयोजनं नपुंसकलिङ्गपदं किमपि प्रयोजनं नास्ति
कश्चन मार्गः अनुश्रियताम् अनुश्रियताम् इत्युक्ते
तत् लोट्लकारः अस्ति कश्चन मार्गः अनुश्रियताम्
कश्चन मार्गः पुल्लिङ्ग अस्ति तदेव तत्र कश्चन इति रूपं दत्तमस्ति कश्चन मार्गः अनुश्रियताम् अनुसरणं करणीयं
तत्र तत्र अनुसरणं करणीयम् इति अनुसरणं करणीयं
मार्गानुगुणं फलं प्राप्येत मार्गम् अनुसृत्य मार्ग अनुगुणम् इत्युक्ते
तत्र अनुश्रियताम् इति लोट्लकारेण करोतु इति अर्थः करणीयम् इति नास्ति न करोतु इति अर्थे अस्ति किल
लोट्लकारः अस्ति लोट्लकारः अस्ति किन्तु
करोतु
इति अर्थे भवति सत्यं भगिनि
आज्ञायकरूपेण
भवति
मार्गानुगुणं फलं प्राप्येत मार्गानुगुणं फलं प्राप्येत
तत्र एकस्य मार्गस्य फलं भिन्नम् अन्यस्य मार्गस्य फलं भिन्नम् अतः मार्गानुगुणं मार्गस्य अनुगुणं फलं
प्राप्येत
तत्र मार्गं भिन्नं मार्गम् अस्ति चेत् भिन्नं फलं भवति भिन्नं फलं प्राप्नुमः
मार्गम् एवम् अनुसृत्य
न मार्गम् एव
अननुसृत्य
तत्र मार्गमेव अननुसृत्य तत्र मार्गस्य अनुसरणं यदि न कृत्वा
प्रगतिप्राप्ति इच्छाकरणं न
उचितं. तत्र प्रगतिप्राप्ति इच्छाकरणं नाम किम्
इत्युक्ते प्रगति प्रगति प्रगत्याः किं वदति प्रगत्याः इच्छा न करणीयम् इति.
हा तत्र अस्तु तत्र पृथक् कृत्वा वदतु
प्रगतिप्राप्ति
इच्छाकरणं तत्र किं किं भवति. हा तत्र
प्रगतिप्राप्ति इच्छाकरणं प्रगत्याः प्राप्त प्रगत्याः किं वदामि प्रगत्याः प्राप्ति इच्छाकरणं वा
तत्र तत्र प्राप्ति प्राप्तिः प्रगतिः तत्र लिङ्गं किं
श्रीलिङ्गं
श्रीलिङ्गं मतिशब्दवत् तत्र इदानीं तत्र प्रगतिप्राप्ति तत्र तयोः मध्ये तत्र यदि प्रगतिप्राप्तिः इति पदद्वयं स्वीकरोतु किन्तु समस्तपदं प्रगतिप्राप्ति प्रगतिप्राप्ति
इदानीं
प्रगत्याः प्राप्तिः इदानीं पुनः प्राप्ति इच्छा इति तत्र प्राप्ति इच्छा तत्र यदि तत्र पृथक् वदामः किं भवति
प्राप्तिः इच्छाकरणं प्राप्तिः इच्छा
किन्तु प्राप्तिः इति नास्ति तत्र किं विभक्ति
ओके समस्तपदमान
प्राप्तेः इच्छा
प्राप्तेः इच्छा
हा इति हा इच्छा इदानीं करणम् इदानीम् इच्छाकरणं तत्र पुनः तत्र पृथक् कृत्वा वदतु इच्छा
इच्छायाः करणं
अस्तु इदानीं तत्र तत्र प्रगतिप्राप्ति इच्छाकरणम् इति तत्र सर्वं पृथक्तया वदतु इदानीं
प्रगत्याः प्राप्तिः
प्राप्तेः
प्रगत्याः प्राप्तेः इच्छा
इच्छायाः
करणं
न उचितं तद् न उचितं तत्र नाम मार्गम् अनुसृत्य यदि
अनुगुणं फलं प्राप्येत
न
अनुसृत्य
तत्र किं मार्गानुगुणं प्रगतेः प्रगतिं प्राप्तुं शक्नुमः किन्तु तत्र मार्गानुगुणं प्रगतिः भिन्ना भवितुम् अर्हति किन्तु मार्गमेव यदि न अनुसरामः
चेत्
तदा किं भवति तत्र तस्मिन् समये तत्र तस्याः इच्छां कुर्मः चेत् तत् उचितं वा
न उचितं
न उचितम् इति
इच्छा एव न करणीयं तत्र
तत्र यदि इच्छामः तत्र तत् समीचीनं न भवति उचितं न भवति
इति बोधितवान् सः महात्मा इति
बोधितवान् सः महात्मा इति समीचीनं भगिनी अस्तु
धन्यवादः महोदय
धन्यवादः भगिनी समीचीनमेव अस्तु अतः तत्र कथायाः मूलविषयः कः इति अवगतवन्तः इति मन्ये किन्तु तत्र अन्यत् किमपि वक्तुं इच्छन्ति वा अस्मिन् अस्यां कथायां तत्र अन्य अंशाः सन्ति वा तत्र अथवा प्रश्नाः सन्ति वा अस्मिन् अस्याः कथायाः विषये
महोदय क्षम्यता एकः संशयः महोदय अत्र अन्तिमपरिच्छेदे अस्ति खलु एवमेव भवति जीवने प्रगति प्राप्तिः अपि इति तत्र भवति इति भवती जीवने इति स्वीकरणीयं वा जीवने प्रगतिप्राप्तिः अपि एवमेव भवति इति स्वीकरणीयं वा
चिन्तयामि भगिनि तत्र साक्षात् क्रियापदम् इति
अस्तु
भवतः जीवने प्रगतिप्राप्तिः अपि इति तत्र षष्ठी भवितुम् अर्हति खलु जीवने किन्तु तत्र जीवने इति भवती जीवने तत्र विशेषणविशेषभावः नास्ति अतः तत्र जीवने प्रगतिप्राप्तिः अपि एवमेव भवति एवमेव समीचीनं भगिनी तत्र अहं तत्र चिन्तितवान् तत्र प्रायशः क्लेशः भवति इति किन्तु धन्यवादः भगिनी भवती
समीचीनं
तत्र साक्षात् क्रियापदं भवति
अनन्तरं तत्र अत्रैव उपविश्य भवतः ग्राम तत्र तद्वाक्यमस्ति खलु महोदय वाक्यद्वयमपि तत्र तत्र एतादृशमपि स्वीकर्तुं भवान् गन्तुं शक्यते वा नो चेत् अहं गन्तुं शक्नोमि वा न क्षम्यतां भवान् गन्तुं शक्नोति वा अहं गन्तुं शक्नोमि वा द्वयमपि स्वीकर्तुं शक्नुमः वा महोदय नो चेत् साधु
सत्यं सत्यं भगिनि तत्र किन्तु तत्र ग्रामम् इति तत्र कर्मपदरूपेण स्वीकरणीयं तत्र
आम्
सत्यं भगिनि तत्र अत्रैव उपविश्य भवतः ग्रामं भवान् गन्तुं शक्नोति वा अथवा भवतः ग्रामम् अहं प्राप्तुं शक्नोमि वा इति सत्यं भगिनि
समीचीनम्
अस्तु अन्यप्रश्नः इदानीं तत्र अन्यत् तत्र किमपि तत्र एवं कुर्मः तत्र भवन्तः एव तत्र अन्यं प्रश्नं पृच्छन्तु
अन्यां कथां पठामः
अस्तु तत्र मम पार्श्वे नास्ति किन्तु यदि
एवं वा
भवत्याः पार्श्वे अस्ति वा तत्र
पश्यामि महोदय एकनिमिषं निमिषद्वयं ददातु
अस्तु भगिनि तत्र प्रायशः तत्र प्राप्तुं शक्नोमि किन्तु एषा कथा तत्र उषा भगिन्या प्रेषिता कथा किन्तु सा अद्य नास्ति क्षम्यताम् किन्तु तत्र अन्ये कथाः सन्ति चेत् समीचीनमेव
महोदय तथा तत्र उपसर्प्य सर्पति इति तु इत्युक्ते यथा सर्पति इत्युक्ते किं यथा स्नेक् महोदय
सत्यं भगिनि सत्यं सर्पति तत्र यथा सर्पः गच्छति तथा गच्छति
यथा सर्पः गच्छति
उपसर्पति नाम उपसर्प्य नाम तस्य समीपं गच्छति इति अर्थः
समीपं तथा तस्य विपरीतार्थक अपि दूरसर्प्य अपि भवितुमर्हति
न जानामि भगिनि किन्तु उपसर्पति इत्युक्ते उपसर्पति इत्युक्ते तत्र समीपं गच्छति इति किन्तु तत्र सर्पति इति तत्
सृप्धातु
तत्र सर्पति इति तत्र लोट् लकारः कः सर्पति इति लोट् लकारः किं भवति किं भगिनि इदानीं तत्र मध्यमपुरुषे एकवचने लोट् लकारः कः
मध्यमपुरुषे सर्प सर्पतात्
सर्प सर्प
सर्पतात्
तत्र सर्प इति भवति तत्र लोट्लकारे सर्पति इति क्रियापदस्य लोट्लकार मध्यमपुरुषे एकवचने सर्प इति अस्ति तत्र सर्प नाम तत्र शीघ्रतया गच्छतु इति
अस्ति वा महोदय
प्रसिद्धः प्रयोगः भगिनि तत्र सर्प तु सर्पति नाम शीघ्रं गच्छतु इति अपि अस्ति शीघ्रतया गच्छति इति प्रसिद्धप्रयोगः यतोहि तत्र के जानन्ति तत्र परीक्षित् राजा इति अस्ति खलु
आं महोदय
सर्वे श्रुतवन्तः खलु तत्र कथा अस्ति परीक्षित् महाराजः तत्र स्वर्गे अस्ति अपि तत्र किं भवति तत्र सप्तर्षेः तत्र सप्तर्षीणां कथा अस्ति तत्र कोऽपि स्मरति
एकः ऋषिः अस्ति सः तस्य कद्दः सः उन्नतः नास्ति ततः सः
यत्र
सः तस्य सः उन्नतः नास्ति, किञ्चित् वामनः एव. ततः यस्मिन् समये पल्लाकः सर्वे उत्थाय महाराजा परीक्षित् उत्थाय चलन्ति. ततः अगस्त्यमहर्षिः वामनः अस्ति. ततः किञ्चित् पल्लकः
तत्र शीघ्रतया न गच्छति.
महाराजा तस्य पादः अगस्त्यमहर्ष्यां स्थाप्य उक्तवान् सर्प सर्प इति.
हा समीचीनं भगिनि. हा ततः महामुनिः किम् उक्तवान् सर्पः इति चेत् भवान्
महोदय परीक्षित् अहं न चिन्तयामि एतत् राजा.
क्षम्यतां क्षम्यतां परीक्षित् इति न धन्यवादः. क्षम्यतां भगिनि तत्र नहुषः
सर्पस्य रूपे.
हा सर्पं रूपं सर्पस्य रूपे सः भूमे पतितवान्. हा अतः तत्र सर्प सर्प इति प्रसिद्धः. तत्र क्रियापदं नामपदं तत्र सर्प इति तत्र सम्बोधनं. हा
अपि महोदय क्षम्यतां महोदय, अहं भवतः ईमेल् मध्ये प्रेषितं महोदय. मया
प्रेषित अत्र स्थापितुं शक्नोति वा भगिनि भवती?
एवं वा? डाक्स्
अस्तु अस्तु एकनिमिषः अहं पश्यामि. अस्तु
डाक्स् मध्ये स्थापयतु, शेर् करणीयं महोदय पुनः.
अस्तु अस्तु करोमि भगिनि. अस्तु एकनिमिषः तत्र करोमि. हा अस्तु भगिनि एकः निमिषः. हा एकनिमिषः. हा परोपकारी स्वामी. अस्तु अस्तु भगिनि.
एषः कदा वयं न कृतवन्तः न महोदय?
न स्मरामि भगिनि, पश्यामः. यदि कृतवन्तः पुनः कुर्मः, तत्र चिन्ता नास्ति. एतदेव तत्र
प्रेषयतु.
हा एकनिमिषं भगिनि प्रेषयामि. हा तत्र गूगल् ड्रैव् मध्ये स्थापितवान्. हा इदानीं लिङ्क् प्रेषितवान्. सर्वे प्राप्तवन्तः वा?
आं महोदय धन्यवादः.
प्राप्तवन्तः.
अस्तु
अहं
प्राप्तवती वा भगिनि? अस्तु परोपकारी
पठितवन्तः मान्ये
प्रायशः, किन्तु यदि न पुनः एकवारं पठामः. किन्तु तत्र लाभः एव अस्ति, अतः पठामः, शीघ्रतया पठितुं शक्नुमः. अस्तु तर्हि अस्तु तर्हि तत्र आरम्भे तत्र लक्ष्मी भगिनी आरम्भं कर्तुम् इच्छति वा?
हा अस्तु महोदय एकनिमिषः. पुरुषोत्तमः
परोपकारस्वामी.
परोपकारी स्वामी अन्यत् आगतं वा? पुरुषोत्तमः इति तत्र लेखकस्य नाम.
परोपकारी स्वामी. पूर्वं कश्चन साधुः आसीत्. परोपकारः तस्य स्वभावः. सर्वदा अटति सः. यः ग्रामः गम्यते तत्र स्थितानां रोगिणां सेवां करोति स्म सः. स्वच्छता रक्षणीया इति वदन् स्वच्छतार्थं स्वयं प्रवर्तते स्म सः. दृष्ट्वा जनाः अपि तेन सह ग्रामस्वच्छताकार्ये उद्यताः भवन्ति स्म. तस्मात् ग्रामात् निर्गतः सः यदा कदाचिदपि पुनः आगन्तुम् अर्हति इत्यतः जनाः सर्वदा ग्रामस्य स्वच्छता विषये अवधानवन्तः भवन्ति स्म. ग्रामेषु मन्दिरे वसन् सः जनैः
भक्त्या
भक्त्या अर्पितानि फलादीनि निर्धनेभ्यः ददाति स्म. परोपकारी स्वामी इत्येव जनाः तं निर्दिशन्ति स्म.
समीचीनं भगिनि, हा धन्यवादः. अस्तु अग्रे तत्र हा वंशीसुधा भगिनी भवती न पठितवती, अग्रे पठति वा?
आम् महोदय, श्रूयते किल?
श्रूयते भगिनि.
अथ एकदा सः ध्यानाय सन्नाहं कुर्वन् आसीत्, तावता कश्चन तस्य पुरतः उपस्थाय महात्मन् भवतः आराध्यदेवस्य विष्णोः दूतः अस्मि अहम्, उपायनत्वेन एतानि भगवता प्रेषितानि इति वदन् सुवर्णनाणकादिभिः पूर्णां स्थालिकां तस्य पुरतः गृहीतवान्. अग्रे पठामि
वा?
एतेन किं मम, यदि दानेच्छा तर्हि निर्धनेभ्यः एतेषां वितरणं भवतु, अन्यथा भवान् एतानि प्रतिनेतुम् अर्हति इति अवदत् परोपकारी स्वामी.
हा इति समीचीनं भगिनि.
अस्तु
समीचीनम्. अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे पठति वा?
आम् महोदय. एतत् श्रुत्वा महत् आश्चर्यम् अनुभवन् सः देवदूतः अवदत्, अस्तु नाम भवदिच्छानुगुणं सर्वमेत निर्धनेभ्यः वितीर्यते. भवतः व्यवहारेण सन्तुष्टः भगवान् सूचितवान् अस्ति यत् इतः परं भवता किमपि कार्यं करणीयं नास्ति इति. परोपकारकर्मणा भवता महत्पुण्यं सम्पादितम्, अतः मोक्षदानं तेन प्रतिज्ञातम् अस्ति. अतः इतः परं भवान् सुखेन स्थातुम् अर्हति इति.
हा समीचीनं भगिनि, धन्यवादः.
धन्यवादः.
अस्तु अग्रे तत्र गीताञ्जलि भगिनि.
तदा परोपकारी स्वामी अवदत् जनसेवा मम कर्तव्यं, तद्विना कथम् अहं तिष्ठेयम्? कर्म ज्यायो ह्यकर्मणः इति भगवता एव आदिष्टम् अस्ति, अतः कर्तव्यविषये सर्वदा अप्रमत्तः भवितुम् इच्छामि अहम्. मोक्षं प्राप्तुम् इच्छा नास्ति मम. जनानां हितातृते अन्यत् किमपि न इच्छामि अहम् इति.
हा समीचीनं भगिनि. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तत्र प्रिया भगिनी अग्रे पठति वा?
आम् महोदय. अहो कर्मणि श्रद्धा भवतः, इतः पूर्वं लोके किमस्ति
ये महात्मानाः जाताः
तान् सर्वान् अतिशेते भवान्, भवतः गुणवत्तया सन्तुष्टः अहम् एकं वरं दातुमिच्छामि, अपेक्षितं याचताम् इति उक्तवान् देवदूतः. मम निमित्तं तु अस्तु मम निमित्तं तु किमपि न आवश्यकं. यदि दानापेक्षा प्रबला स्यात् तर्हि देशे बहुत्र दृश्यमानः क्षामः निवार्यताम्. तेन असंख्याः जीविनः
उपकृताः
भवेयुः इति उक्तवान् परोपकारी स्वामी.
हा इति तत्र मुद्रणं तादृशम् अस्ति तत्र, अथवा तत्र स्कान् समये तत्र एतादृशम् अभवत् इति मन्ये. अतः तत्र द्वितीयस्तम्भे तत्र किञ्चित् क्लेशः अस्ति, किन्तु समीचीना कथा अस्ति. हा संशीसद भगिनी धन्यवादः. अतः तत्र इदानीं पश्यामः, तत्र नरेश महोदय आरम्भं करोति वा?
आं महोदय. पूर्वं कश्चन साधुः आसीत्. अत्रापि कश्चन प्रथमविभक्ति कः जन.
हा महोदय तत्र शीघ्रतया वदतु, यतोहि तत्र हा यत्र सुलभः अस्ति तत्र किमपि मास्तु, केवलं यत्र विशिष्टं किमपि अस्ति चेत् तत्र यत्र अवगमनं दुष्करं भवति चेत् तत्र किमपि वदतु.
पूर्वं कश्चन साधुः आसीत्, परोपकारः तस्य स्वभावः.
तस्य स्वभावः किं कः? परोपकारः.
परोपकारः साधु साधोः स्वभावः
समीचीनं. साधोः स्वभावः परोपकारः.
सर्वदा अटति सः.
अटति नाम
अत्र तत्र गच्छति.
हा एकस्मिन् स्थले सः न तिष्ठति, एकस्मिन् ग्रामे सः न तिष्ठति. अद्य अत्र अस्ति चेत् अग्रिमे दिने सः अन्यत्र भवितुम् अर्हति. हा अटति सः सर्वदा अटति सः. अग्रे
यः ग्रामः गम्यते तत्र स्थितानां रोगीणां सेवां करोति स्म सः.
हा यः ग्रामः गम्यते तत्र किम् अस्ति?
कर्मणि अस्ति. तत्र सः रोगिणां सेवां करोति स्म.
हा तत्र यं ग्रामं सः गच्छति, यं ग्रामं सः गच्छति तस्मिन् ग्रामे
रोगिणां सेवां करोति स्म.
रोगिणां षष्टि सेवां करोति स्म. सेवां कर्मपदं सः सेवां करोति स्म.
स्वच्छता रक्षणीयाः रक्षणीया इति वदन् स्वच्छतार्थं स्वयं प्रवर्तते स्म सः. सः अन्य अपि वदति स्वच्छता रक्षणं करोतु,
स्वच्छतायाः स्वच्छतायाः रक्षणं करोतु. करणीयं स्वच्छतायाः रक्षणं करणीयं. रक्षता अतः स्वच्छता रक्षणीया. रक्षणीया इति विशेषणं. स्वच्छता कीदृशी रक्षणीया, तस्याः रक्षणम् आवश्यकम् इति वदन्
स्वयमपि स्वच्छता करोति.
हा स्वच्छतार्थं, स्वच्छतार्थम् इति स्थाने आर्तम् इति अस्ति चेत् तत्र चतुर्थी स्थापितुं शक्नुमः. तत्र स्वच्छतार्थम् इति स्थाने किन्तु
स्वच्छतायै.
हा समीचीनं महोदय. हा यतोहि स्त्रीलिङ्गपदं. हा स्वच्छतायै, स्वच्छतायै स्वयं प्रवर्तते स्म सः. अग्रे
तत् दृष्ट्वा जनाः अपि तेन सह
तेन सह
ग्रामस्वच्छताकार्ये उद्यताः भवन्ति स्म.
उद्यताः भवन्ति स्म. ते अपि नाम ते अपि तत् कुर्वन्ति स्म.
तस्मात् ग्रामात् निर्गतः सः यदा कदा कदाचित् अपि पुनः आगच्छति इत्यतः जनाः सर्वदा ग्रामस्य स्वच्छता विषये अवधानवन्तः भवन्ति स्म.
एतत् वाक्यं किञ्चित् कष्टकरं वाक्यम् इति मन्ये. अतः तत्र किञ्चित् विवृणुमः. तत्र ग्रामात् निर्गतः
अवधान किमस्ति?
हा वदामः महोदय. तत्र तस्मात् ग्रामात् निर्गतः सः नाम सः अद्य ग्रामे अस्ति, किन्तु इदानीं ग्रामात् निर्गतः, अन्यत् ग्रामं गतवान् किन्तु यदा कदाचिदपि सः किं पुनः आगन्तुं आगन्तुं शक्नोति, आगन्तुम् अर्हति. तत्र श्वः सः आगच्छति वा परश्वः सः आगच्छति वा न जानीमः, किन्तु यदा कदापि सः पुनः आगन्तुम् अर्हति इत्यतः इति चिन्तयित्वा अद्य सः अस्ति किन्तु अद्य सः न ह्यः आसीत् अद्य सः नास्ति अन्यत्र गतवान् किन्तु श्वः सः पुनः आगन्तुं शक्नोति इत्यतः किम् इति कारण इति कारणात् जनाः किं कृतवन्तः
चिन्तयन्ति स्वच्छता विषये चिन्तयन्ति
हा सर्वदा नाम सर्वदा तत्र केवलं श्वः श्वः सः नास्ति अपि अद्य सः नास्ति किन्तु सः अस्ति चेत् स्वच्छता विषये ते कार्याणि कुर्वन्ति किन्तु अद्य सः नास्ति इदानीं किं स्वच्छताकार्यं ते न कुर्वन्ति वा न अद्य अपि न ते कुर्वन्ति यतोहि सः श्वः आगन्तुं प्रति आगन्तुं शक्नोति अतः अवधानवन्तः अवधानवान् नाम अवधानवान् अवधानवत् इति तत्र अवधानवत् इत्युक्ते किम्
अवधानवन्तः अहं तु चिन्तयामि तत्
धनवान् धनवान् इति इत्युक्ते किम्
धनवान् तु यस्य समीपे धनम् अस्ति
यस्य धनम् अस्ति अथवा यस्य धनम् अस्ति सः धनवान् प्रातिपदिकं धनवत् अत्र यस्य अवधानम् अस्ति सः अवधानवान् अवधानम् अवधानम् इत्युक्ते तत्र प्रश्नः किं भवति कस्मिन् विषये अवधानम् अस्ति इति तत्र सावधानम् इत्युक्ते किम् विट् अटेन्शन् इति खलु अवधानेन सह अवधानम् अस्ति तेषाम् अवधानम् अस्ति इति कृत्वा ते अवधानवन्तः जनाः जनः अवधानवान् जनाः अवधानवन्तः सन्ति किन्तु कस्मिन् विषये अवधानवन्तः सन्ति ते
स्वच्छताविषये
स्वच्छताविषये ते अवधानवन्तः भवन्ति स्म अवधानवन्तः इदानीं तत्र अवधानवन्तः अद्य इदानीम् अवधानम् अस्ति किन्तु श्वः अवधानं नास्ति वा न सर्वदा सर्वदा अवधानवन्तः भवन्ति अतः तत्र कस्मिन् विषये स्वच्छताविषये
परन्तु अहं चिन्तितवान् अवधान तत् न करोति अवधानम्
न अवधानं कुर्वन्ति इति कृत्वा अवधानं तेषां हा तेषाम् अवधानम् अस्ति इति कृत्वा अवधानवन्तः ते तत्र अनवधानं न इति अर्थे नास्ति अवधानम् अस्ति इति एव अर्थः सर्वदा अवधानं तेषाम् अवधानम् अस्ति कस्मिन् विषये ग्रामस्य स्वच्छताविषये अवधानं तेषाम् अस्ति इति अतः ते अवधानवन्तः भवन्ति स्म ते जनाः यतोहि सः परोपकारी स्वामी पुनः यदा कदापि सः पुनः आगन्तुं शक्नोति हा यदि सः आगच्छति अपि एते जनाः न कृतवन्तः चेत् तत्र स्वच्छताविषये किमपि न कृतवन्तः चेत् सः पृच्छति किम् अभवत् इति अतः सः प्रष्टुं शक्नोति इति कृत्वा ते सर्वे अवधानवन्तः भवन्ति स्म सन्ति आसन् ग्रामेषु
महोदय तत्र स्वच्छताविषये ध्यानेन सर्वाणि कार्याणि कुर्वन्ति
कस्मिन् विषये अवधानम् अस्ति इति अत्र भगिनि अवधानं कस्मिन् विषये अस्ति इति प्रश्नः अस्ति भवती
अस्तु ध्यानेन इति भिन्न
ध्यानेन इति भिन्नः हा तत्र तत्र भावः नास्ति तत्र अवधानम् अस्ति तेषां किन्तु कस्मिन् विषये अवधानं स्वच्छताविषये अस्तु अग्रे
ग्रामेषु मन्दिरे वसन् सह जनैः भक्त्या अर्पितानि फलादीनि निर्धनेभ्यः ददाति स्म
ददाति स्म इति स्वीकरोतु सः ददाति स्म
सः ददाति स्म
किं ददाति स्म
फलादीनि
फलादीनि ददाति स्म कस्मै ददाति स्म सः
निर्धनेभ्यः
निर्धनेभ्यः चतुर्थी निर्धनेभ्यः ददाति स्म फलादीनि तत्र कीदृशानि फलादीनि
भक्त्या अर्पितानि
अर्पितानि फलादीनि किन्तु कैः अर्पितानि फलानि
जनैः
जनैः जनैः अर्पितानि जनैः अर्पितानि केन अथवा कया भावयेन भावना तत्र कया भावनया अर्पितानि फलानि एतानि भक्त्या अर्पितानि फलादीनि निर्धनेभ्यः सः ददाति स्म कस्मिन् समये एतत् सः करोति स्म
मन्दिरे
वसन् वसन् सः वसति स्म तस्मिन् एव समये सः ददाति स्म अतः तत्र शत्रन्तं वसन् ददाति स्म सः अग्रे
परोपकारि स्वामि इत्येव जनाः तं निर्दशन्ति
निर्दिशन्ति स्म
निर्दिशन्ति स्म
नाम तस्य अभिधानं तस्य अभिधानं तस्य नाम किम् आसीत् परोपकारी स्वामी एव तत्र तस्य अभिधानं तत्र निर्दिशन्ति स्म तं स्वामिनम् अथवा तं साधुं जनाः निर्दिशन्ति स्म समीचीनम् अस्तु अग्रे धन्यवादः महोदय अस्तु अग्रे तत्र तत्र केवलं यत्र क्लेशः अस्ति तत्र एव तत्र विवृणुमः नो चेत् कथायाः समाप्तिः न भवति इति अस्तु समीचीनम् इदानीं तत्र अग्रे तत्र कः पठितुम् इच्छति तत्र वंशीसुधा भगिनी भवती एव तत्र किञ्चित् वदति वा तत्र यत्र क्लेशः अस्ति तत्र एव किञ्चित् केवलं पठतु
अथ एकदा सः ध्यानाय सन्नाहं कुर्वन् आसीत् सः तत्र सः इत्युक्ते तत्र
ध्यानाय
सन्नाहं कुर्वन् आसीत् इति तु शत्रन्तपदमस्ति कुर्वन् आसीत् इति
अस्ति अग्रे
तावता कश्चन तस्य पुरतः उपस्थाय महात्मन् भवतः आराध्य देवस्य विष्णोः दूतः अस्मि अहं कश्चन पुरुषः तस्मात् पुरतः आगत्य वदति तस्य पुरतः आगत्य वदति अहं विष्णोः दूतः अस्मि भवतः आराध्य देवः यः विष्णुः अस्ति तस्य दूतः अहमस्मि इति उक्तवान्
समीचीनम्
उपायनत्वेन एतानि भगवता प्रेषितानि सः उक्तवान् एतानि वस्तूनि उपायनत्वेन इत्युक्ते उपायनम् अस्ति
उपायनरूपेण
नपुंसकलिङ्गं वा उपायनः उपायनम् इति अस्ति
वा उपायनरूपेण
एतानि
प्रेषितानि एतानि प्रेषितानि
भगवता इति भगवता प्रेषितानि
अथवा भगवान् प्रेषितवान्
भगवता किमर्थम् उक्तं महोदय
कर्मणि भगवता प्रेषितानि
न प्रेषितानि इति तु अस्तु
त प्रत्यय भवती एव तत्र गतवर्गे कृतवती खलु भूतकालम् इति सूचयति
तत् समीचीनं परन्तु भगवता प्रेषित अस्तु एतानि भगवता एतानि प्रेषितानि वाक्यं तु भगवता एतानि प्रेषितानि तु सम्यक् कर्मपदं तु एतानि वस्तूनि समीचीनम् इति वदन् आभरणसुवर्णनानादिकाभिः तत्र आभरणानि सुवर्णाः सुवर्णनाणकादिभिः तृतीया भवति तत्र तु तृतीया भवति वा पूर्णां स्थालिकां तस्य पुरतः गृहीतवान्
सर्वं स्थालिका कीदृशी आसीत् स्थालिका
पूर्णां स्थालिकां
पूर्णां स्थालिका
न पूर्णम् इति कर्मपदं किन्तु स्थालिका पूर्णा आसीत् इदानीं पूर्णा आसीत् इत्युक्ते केन पूर्णा आसीत् अथवा कया पूर्णा आसीत् इति प्रश्नः तैः पूर्णा आसीत् एषा स्थालिका तां स्थालिकां दूतः किं कृतवान्
तस्य पुरतः स्थापयति
साधोः पुरतः अथवा स्वामिनः पुरतः स्थापितवान् अथवा पुरतः गृहीतवान् अस्तु अग्रे
एतेन किं मम यदि दाने च तर्हि निर्धनेभ्यः एतेषां वितरणं भवतु सः साधु उक्तवान् मम तु यदि इच्छति चेत् निर्धनेभ्यः कृते एतेषां वितरणं दानं
करोतु किन्तु अहं तत्र
न स्वीकरोमि
एतानि प्रतिनेतुं भवान् एतानि प्रतिनेतुम् अन्यथा प्रतिनेतुं नाम किम्
प्रतिनेतुम् इत्युक्ते तत्र स्वीकरणीयं वा महोदय एतानि
प्रतिनेतुं नाम तत्र भवान् एव तत्र स्वीकरोतु अहं न स्वीकरोमि
पुनः स्वीकरोतु पुनः अन्यथा भवान् एतानि प्रतिनेतुम् अर्हति इति अवदत् परोपकारी स्वामी
अस्तु अस्तु तत्र समयः तत्र किञ्चिदेव अस्ति अतः तत्र निमिषद्वयं स्वीकृत्य तत्र समापयामः अस्तु तर्हि समीचीनं भगिनि अस्तु अग्रे तत्र अग्रे कः पठितुम् इच्छति तत्र तत्र किं
भवान् अपि भवान् एव वदतु
अस्तु महोदय अस्तु एतत् श्रुत्वा महत् आश्चर्यम् अनुभवन् सः देवदूतः अवदत् तत्र स्वामिनः वाक्यं श्रुत्वा सः आश्चर्यम् अनुभवन् तत्र शत्रन्तरूपम् अनुभवति अपि तस्मिन्नेव समये सः वदति अतः अनुभवन् सः वदति अवदत् अस्तु नाम अस्तु भवतु नाम भवतः इच्छा अनुगुणं सर्वमेतत् निर्धनेभ्यः वितीर्यते एतत् सर्वं निर्धनेभ्यः ददामि भवतः व्यवहारेण सन्तुष्टः भगवान् भवतः व्यवहारः कीदृशः इत्युक्ते तेन बहु सन्तुष्टः अस्ति भगवान् अतः सः भगवान् किं कृतवान् सः सूचितवान् अस्ति किं सूचितवान् अस्ति इतः परम् अद्य आरभ्य इतः परं भवता किमपि कार्यं करणीयं नास्ति भवान् एतत् करोतु एतत् करणीयम् इति भवता एतत् करणीयम् इति किमपि कार्यं तादृशं नास्ति परोपकारकर्मणा भवान् अनेकानि कार्याणि कृतवान् परोपकारकार्याणि कृतवान् इति कृत्वा तेन भवतः पुण्यं बहु किमपि अस्ति भवता तृतीय महत् पुण्यं सम्पादितं भवान् महत् पुण्यं सम्पादितवान् अस्ति अतः मोक्षदानं तेन प्रतिज्ञातम् अस्ति नाम भवतः मोक्षं तु तत्र तस्मिन् विषये कोऽपि सन्देहः नास्ति प्रतिज्ञातं प्रतिज्ञा कृतं भगवता नाम भवत्यै मोक्षं ददामि इति तत्र प्रतिज्ञा कृतं भगवता अतः भवान् मोक्षं प्राप्नोति एव संशयः कोऽपि न कोऽपि संशयः अतः इतः परम् अद्य आरभ्य भवान् सुखेन स्थातुम् अर्हति भवान् किमपि मा करोतु केवलं सुखेन जीवतु इति सः दूतः वदति तदा परोपकारिस्वामी अवदत् जनसेवा मम कर्तव्यं तत्र जनसेवा अहं करोमि एव तद्विना यदि तद् न करोमi कथम् अहं तिष्ठेयं तद् अहं तत्र न स्थातुं शक्नोमि तत्र यदि जनसेवा न करोमि अहं न स्थातुं शक्नोमि कर्मध्यायो हि कर्मणः इति कर्मध्यायो हि अकर्मणः प्रायशः अस्ति इति मन्ये तत्र तत्र अहम् एतद् वाक्यं न स्मरामि तत्र कुत्र अस्ति इति द्रष्टव्यमस्ति इति भगवता एव आदिष्टम् अस्ति अतः कर्तव्यविषये सर्वदा अप्रमत्तः भवितुम् इच्छामि अहं तत्र एतद् मम कर्तव्यमस्ति चेत् तत् अहं करोमि एव विना तत्र कार्यस्य विना करणम् अहं न तिष्ठामि तत्र अतः सर्वदा कार्यस्य विषये अवधानं मम भवति मोक्षं प्राप्तुं मम इच्छा नास्ति, मोक्षं मम भवति न वा इति, तत्र मोक्षं प्राप्नोमि वा न वा इति तस्मिन् विषये मम इच्छा किमपि कापि नास्ति. जनानां हितातृते पञ्चमी, जनानां षष्ठी, जनानां हितातृते अन्यत् किमपि अहं न इच्छामि. मम इच्छा केवलम् अस्ति जनानां हितः एव इच्छा, हितमेव इच्छामि, अन्यत् किमपि न इच्छामि. अहो कर्मणि श्रद्धा भवतः, कर्मणि भवतः श्रद्धा कीदृशी अस्ति, आश्चर्यम् अहो पश्यतु, भवत्याः भवतः श्रद्धां पश्याम पश्यतु, तत्र कर्मणि भवतः श्रद्धा कीदृशी अस्ति. इतः पूर्वं लोके ये महात्मानः जाताः तान् सर्वान् अतिशेते भवान्, नाम ये जनाः महात्मानः आसन् तेषां कृते तत्र तेषाम् अपेक्षया भवान् अग्रे अस्ति, अतिशेते तेषां कृते तत्र अपेक्षया भवतः श्रद्धा अधिका अस्ति, भवतः गुणवत्तया सन्तुष्टः, गुणवत्तया तत्र गुणवान् अस्ति, गुणवत्ता भवतः गुणवत्ता इति तया सन्तुष्टः. अहम् एकं वरं दातुम् इच्छामि, अहमपि एकं वरं दातुम् इच्छामि, दूतः वदति. अपेक्षितं याचिता याचताम् इति, तत्र याचतां लोट्लकारः यद् भवान् इच्छति तद् याचतु इति सः देवदूतः वदति. अतः तत्र परोपकारी स्वामी किं वदति, मम निमित्तं तु मम कृते किमपि न आवश्यकं, मम आवश्यकता किमपि नास्ति, कापि नास्ति. यदि धानापेक्षा प्रबला स्यात्, भवान् तत्र धानं ददामि एव इति तत्र प्रबला तत्र दृढा अस्ति अपेक्षा, अहं दास्यामि एव इति भवान् चिन्तयति चेत्, तर्हि देशे बहुत्र दृश्यमानः तत्र द्रष्टुं शक्नुमः क्षामः सन्ति, तेषां क्षामः निवार्यताम्, तत्र क्षामः सन्ति तस्य निवारणं करोतु, तेन असङ्ख्याः जीविनः उपकृताः भवेयुः. तत्र अनेके तत्र जीविनः तेषाम् उपकारं भवति, अतः तत् करोतु इति उक्तवान् परोपकारी स्वामी इति. समीचीना कथा,
सम्यक्
वंशी सुधा भगिनी, धन्यवादः.
धन्यवादः महोदय, सुन्दरं
हा सुन्दर सुन्दर सुन्दरी कथा अस्ति,
सुन्दरी कथा,
सुन्दरी कथा. अस्तु तर्हि समीचीनं, हा तत्र अस्तु. अन्ते तत्र श्रीप्रिया भगिनी भवती तत्र शान्तिमन्त्रं वदति वा भगिनि?
आं वदामि महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः महोदय.